अथ पञ्चविंशत्युत्तरशततमं सूक्तम्। अष्टर्चस्यास्य सूक्तस्य वागाम्भृणेरशिका आत्मा देवता प्रथमर्चः तृतीयादिषण्णाञ्च त्रिष्टुप् द्वितीयायाश्च जगति छन्दसि।
अहं रुद्रेभिर्वसुभिश्च राम्यहमादित्यैरुत विश्वदेवैः। अहं मित्रावरुणो भाबिभर्म्यहमिन्द्राग्नि अहमश्विनो भा अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम्। अहं दधाभिद्रविणं हविष्मते सुप्राव्ये ए यजमानाय सुन्भते। अहं राष्ट्री सङ्गमनि वसूनाञ्चिकितुषी प्रथमा यज्ञानाम् तां मा देवाव्यदधुः पुरुत्रा भूरिस् थात्रां भूर्या वेशयन्ति। मया सो अन्नमत्तियो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम्। अमन्तवो मान्त उपक्षियन्ति श्रुधि श्रुतश्रद्धिवन्दे वदामि। अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुतमानुषेभिः। यं कामयेतन्तमुग्रं कृणामि तं ब्रह्माणं तमृषिं तं सुमेधाम्। अहं रुद्राय धनुरातनोमि ब्रह्मद्विशेषरभेहन्तवा अहञ्जनाय समदं कृणाम्यहं यावा पृथिवी आविवेश। अहं सुवे पितरमस्य मूर्धन्ममयो निरप्स्वा अन्तः समुद्रे ततो वितिष्ठे भुवनानु विश्वतामून्याम् वर्ष्मणोपस्पृशामि। अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विश्वा परो दिवा पर एना पृथिव्यै तावति महिना संबभूव।
इति पञ्चविंशत्युत्तरशततमं सूक्तम्।